एष रेडियो नेपालः सम्प्रति समाचारः श्रीयन्ताम् प्रवाचकः ध्रुव भट्टराई। सत्तारूढस्य नेकपा माओवादी केन्द्रस्य यः उपविष्टेन पदाधिकारिणाम् उपवेशेन राष्ट्रपति निर्वाचने दलस्य कार्यस्य सम्बन्धी अन्तिम निर्णयस्य अधिकार दलाध्यक्षाय प्रधानमन्त्रिणे च पुष्पकमल दाहाल प्रचण्डाय प्रदत्तो वर्तते। पेरिस डाँडा वर्तिनी माओवादी केन्द्रस्य केन्द्रीय कार्यालय ह्य उपविष्टेन पदाधिकारिणाम् उपवेशेन राष्ट्रिय सहमतय बलम् प्रदाय अन्तिम निर्णयस्य अधिकार अध्यक्षाय प्रचण्डाय प्रदत्तो स्थिति दल प्रवक्ता कृष्ण बहादुर महरा अज्ञापयत्। उपवेशेन राष्ट्रिय सहमति अवन्दिष्टुम् निर्णीतमिति ज्ञापयन् दल प्रवक्ता महरा गणतन्त्रस्य संविधानस्य च रक्षायै शान्ति प्रक्रियाय पूरणाय राष्ट्रिय सहमतये च स्वदलस्य बलमस्थिति अवोचत्। प्रवक्ता महरा फाल्गुनस्य द्वादश दिवसस्य अभ्यन्तरे एव राष्ट्रपति सम्बन्धी दलस्य धारणा सार्वजनिक करिष्यते। एतस्मिन् क्रमे विभिन्नै दलै सह दलेन विमर्शनम् सततम् चाल्यते चेति अवदत्। इतः पूर्वमपि विभिन्नेषु मञ्चेषु माओवादी केन्द्रेण राष्ट्रपते राष्ट्रिय सहमत्य अग्रे बढितुम् धारणा अभ्यज्यमाना वर्तते। अस्यैव फाल्गुनस्य पञ्चविंशे दिवसे राष्ट्रपति निर्वाचनम् सम्पत्स्यमानम् वर्तते। निर्वाचन आयोगेन अस्यैव फाल्गुनस्य पञ्चविंशे दिवसे सम्पत्स्यमानाय राष्ट्रपतेः आगामिनः चैत्रस्य तृतीय दिवसे निर्धारिताय उपराष्ट्रपतेश्च निर्वाचनाय गतदिवस तु निर्वाचनाधिकृतस्य कार्यालय सञ्चालितो वर्तते। नयाँ बानेश्वर स्थितस्य अन्तर्राष्ट्रिय सम्मेलन केन्द्रस्य परिसरे स्थापितम् निर्वाचनाधिकृतस्य कार्यालयम् उद्घाटयन् प्रमुख निर्वाचनयुक्त दिनेश कुमार थपलिया अवदत्, निर्वाचनाय आयोगस्य पक्षतः मतदात्री नाहवल्या अन्तिम सूची कार्यालयाय प्रदीयते। कार्यालयेन स्वीकृतस्य निर्वाचन कार्यक्रमस्य अनुसारेण श्वः फाल्गुनस्य दशमे दिवसे मतदातृनावली च प्रकाशयिष्यते। असौ पश्चात्तन्या राष्ट्रिय जनगणनाय अन्तिम परिणाम प्राप्ति अवशिष्टत्वाद विद्यमानस्य विधे अनुसारेण अष्टषष्ट्युत्तर द्विशतम वैक्रमाब्दस्यैव राष्ट्रिय जनगणनाय परिणाम आधृत्य ऐसम निर्वाचने मतभारो निर्णीता इत्यभासत। प्रमुखायुक्त थपलिया अकथयत्, राष्ट्रपते निर्वाचनस्य मतदान दिवसस्य सायं सप्तवादनो यावत् मतपरिणामस्य प्रकाशनत्वेन पूर्वकार्यम् विहितम्। एवं केनापि प्रत्याशिन बहुमते न प्राप्ते अपरेद्यु फाल्गुनस्य षड्विंशे दिवसे एव निर्वाचनम् विधास्यते। प्रमुख निर्वाचनयुक्त थपलिया राष्ट्रपते उपराष्ट्रपतेश्च निर्वाचनस्य मतगणनाय निर्वाचनाधिकृतस्य निरीक्षणे केन्द्रे एव सम्पादन कारिण्या व्यवस्थाया हेतोः प्रदेशे मतदान केन्द्रम् स्थापयितुम् न शक्तमिति ज्ञापयन्नब्रवीत्। मतदानम् अन्तर्राष्ट्रिय सम्मेलन केन्द्रस्य परिसरे एव भविष्यति। निर्वाचनायुक्तानाम् रामप्रसाद भण्डारिणा डाक्टर जानकी कुमारी तुलाधरस्य सगुन शमशेर जबरा इत्यस्य च सहभागितायाम् सम्पन्ने तस्मिन् कार्यक्रमे आयोगस्य सचिव गोकर्णमणि दुवाडी आयोगेन स्वीकृतस्य कार्यक्रमस्य अनुसारेण राष्ट्रपते उपराष्ट्रपतेश्च निर्वाचनस्य कार्यक्रमान् सञ्चालयितुम् निर्वाचनाधिकृतस्य कार्यालयेन कार्यारम्भो विहित इति असूचयत्। निर्वाचनाधिकृत महेश शर्मा पौड्याल राष्ट्रस्य सर्वोच्च पदस्य निर्वाचन स्वच्छतया स्वतन्त्र रूपेण च कारयितुम् व्यक्तो विश्वासः कार्येण पुष्टीकरिष्यति इति प्रतिबद्धताम् अभिव्यनक्। आयोगेन न्याय परिषद परामर्शेन पाटनवर्तिन उच्च न्यायालयस्य न्यायाधीश पौड्यालः राष्ट्रपति उपराष्ट्रपतेश्च निर्वाचनाय निर्वाचनाधिकृतः निर्धारितो वर्तते। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड भाषते, शैक्षिक जनशक्ति वर्धमानम् विदेश पलायनम् रोद्धुम् सर्वै दायित्ववाहिभिर्भाव्यम्। कास्की जनपदस्य लेखनाथ स्थाने ह्य आयोजिते पोखरा विश्वविद्यालयस्य दीक्षान्त समारोहे प्रधानमन्त्री प्रचण्ड अवदत्, जनशक्ति विदेश पलायनम् देशाय समवायस्य विश्वस्थिति हेतोः एतत् रोद्धुम् सम्बद्धै सर्वै पक्षे ध्यानम् प्रदातव्यम्। ह्य एव नेकपा माओवादी केन्द्रस्य गण्डकी प्रदेश समिते षष्ठम् पूर्णोपवेशम् पोखरायाम् सम्बोधयन् प्रधानमन्त्री प्रचण्डः द्वादश सूत्रीय सहमतेर्धरणस्य विस्तृत शान्ति संविधायः संविधान निर्माणस्य च समय एकत्र स्थितया शक्त्या भूयोऽपि एकत्र स्थेयम् इति प्रत्यपादयत्। प्रधानमन्त्री प्रचण्ड राष्ट्रस्य राजनीतिक आर्थिक रूपेण कठिन परिस्थितौ विद्यमानतायाः अवस्थायां मिलित्वा अग्रे वर्धितव्यम्। प्रधानमन्त्री प्रचण्ड राष्ट्रिय सहमतिर्माध्यमेन देशस्य समस्याः समाधातव्याः इति चर्चयन् राष्ट्रपते उपराष्ट्रपते च राष्ट्रिय सहमतिर्भवतु इत्यात्मन अभिलाषु स्थिति अभासत। असौ अकथयत् समाजवादी संयुति निर्माणाय विमर्शन संचलनस्य कारणात् केन्द्रीय समिति उपवेशात् निष्कर्ष प्राप्स्यते। प्रधानमन्त्री प्रचण्ड अर्थतन्त्रस्य सुधाराय गभीर प्रयास विधेयमान स्थिति भाषमाण सर्वकारीय सेवा प्रभावस्य प्रभावकारितायै कार्ययोजना निर्माय सर्वकारस्य अग्रे वर्धनस्य हेतु अनुकूल परिणाम शीघ्रं दृष्टिपथम् आयस्यति न्यश्चिनोत्। सभामुख देवराज घिमिरे कथयति सांविधानिक आयोगानां उत्तरदायिन प्रभावकारिणश्च विधातुम् एतेषां कार्याणां वार्षिक प्रतिवेदनस्य च विषये संसदि विमर्शनं विधातव्यम्। राष्ट्रिय समावेशी आयोगेन वार्षिक सभस्य अवसरे ह्यो ललितपुरे आयोजिते कार्यक्रमे सभामुख घिमिरे अवदत् आयोगै सीमित स्रोत साधनानां वैपरीत्येन विहितानि महत्वपूर्ण कार्याणि कुत्रापि विमृष्टानि न सन्ति। सभामुख घिमिरे अवोचत् आयोगानां परामर्शानां क्रियान्वयनस्य अवस्था परिणामस्य समीक्षणीयौ। कार्यक्रमले राष्ट्रिय समावेशी आयोगस्य अध्यक्ष डाक्टर रामकृष्ण तिमलसेना आयोगस्य लक्ष्यम सामाजिक न्याय स्थिति चर्चन अगदत् राज्यस्य सर्वेषां स्तराणां पक्षाणां च कृते राज्यस्य अवसर प्राप्ति प्रतिनिधित्वानां सुनिश्चयनाय आयोगेन भूमिका निर्वीह्यते। अद्य शेर्पा समुदायेन सांस्कृतिक नववर्षस्य रूपेण ग्याल्बो लोसार पर्व समायोज्यमानं वर्तते। उपलक्ष्यस्मिन् शेर्पा जातीय जना स्वजाति संस्कृत्यनुसारेण परिधानं सन्धार्य परस्परं शुभभावनां प्रकटयन्ति। उपलक्ष्यस्मिन् राष्ट्रपतिना विद्यादेवी भण्डारिणा प्रदत्ते शुभकामना सन्देशे ग्याल्बो लोसार पर्वणा नेपालिन मध्ये परस्परं सद्भाव सहिष्णुता बन्धित्वानां भावना प्रवर्धते येन राष्ट्रियकता बलवती भवतीति उक्तं वर्तते। एवमेव उपराष्ट्रपतिना नन्दबहादुर पुन्यत्यनेन सभामुखेन देवराज घिमिरे विधेन राष्ट्रियसभा अध्यक्षेण गणेश प्रसाद तिमलसेना इत्यनेन नेपाली कांग्रेस दलस्य सभापतिना शेरबहादुर देउवा विधेन च अवसरेस्मिन् सन्देशान प्रदाय शुभकामना व्यक्त वर्तते। प्रथम राष्ट्रपति डाक्टर रामवरण यादव वदति संघीय लोकतान्त्रिक गणतन्त्रस्य सुदृढीकरणाय राजनीतिक दले स्वस्य व्यवहारे क्रमेण सुधारो विधातव्यः। त्रिसप्ततितमस्य प्रजातन्त्र दिवसस्य अवसरे जनकपुर बौद्धिक समाजेन ह्यो जनकपुर धामनि आयोजिते कार्यक्रमे पूर्व राष्ट्रपति डाक्टर यादव जनताया सम्पृक्तानां दलानां क्रियाकलापान् आधृत्य समग्र व्यवस्थां लक्ष्यीकृत्य प्रश्न उद्भावितो स्थिति चर्चन अकथयत् सर्वै दलै जनभावना अनुसारेण कार्य सम्पादनम् आवश्यकं वर्तते। प्राणोत्सर्गीणां बलिदानस्य पूर्वजानां निष्ठाय आदर्शस्य च क्रमेण परित्यागत नागरिकेषु वितृष्णा उत्पद्यमाना स्थिति तर्कनासौ व्यवस्था सञ्चालनस्य असामर्थ्यस्य दोषस्य व्यवस्थायाम् आक्षेपकारी कार्यं केनापि न विधेयमिति धारणाम् उपस्थापयत्। इति समाचारः।